इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य नवदेहली नगरे मुख्य सचिवानां पञ्चमं राष्ट्रिय सम्मेलनस्य अध्यक्षता कृता। पश्चिमबंगाले मतदाता सूच्याः विशेष अन्वीक्षण पुनरीक्षण SIR इत्यस्य वादश्रवणस्य प्रथमचरणम् अद्य प्रभृति प्रारब्धम्। नागरिक विमानन महानिदेशालयस्य संयुक्त महानिदेशकः संजय के ब्रह्माणे इत्यस्य नेतृत्वे अन्वेषण समित्याः इंडिगो विमान यानानां परिचालन बाधायाः विषये स्वीय प्रतिवेदनं समर्पितम्। खालसा पंथ इति सिख मतस्य संस्थापकस्य श्री गुरु गोविंद सिंहस्य ऊनषष्ट्युत्तर त्रिशत तमीया जयन्ती अद्य हर्षोल्लासेन परिपाल्यते। अपि च थाईलैंड कम्बोडिया देशौ विवादास्पद सीमायां संघर्ष विरामाय सन्धिपत्रे हस्ताक्षरं कृतवन्तौ। अथ वार्ताः विस्तरेण। ह्यः नवदेहली नगरे मुख्य सचिवानां पञ्चमं राष्ट्रिय सम्मेलनम् आरभत। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य श्वः च सम्मेलनस्य अध्यक्षता करिष्यते। त्रिदिवसीय सम्मेलनस्य अस्य उद्देश्यं राष्ट्रिय प्राथमिकतासु संरचितेन सुस्थिरेण च संवादेन केन्द्र राज्य सहभागित्वं सुदृढं करणीयमस्ति। प्रधानमन्त्रिणः सहकारी संघवादस्य दृष्ट्या स्थापितम् अयं सम्मेलनं केन्द्र राज्ययोः सहयोगस्य मञ्चरूपेण कार्यं करोति। सम्मेलनेऽस्मिन् विकसित भारताय मानव सम्पत्ति इत्यस्मिन् विषये ध्यानम् अवदास्यति। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 29 शततमं संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन AIR इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमंत्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दी भाषायाः प्रसारणस्य पश्चात् अस्य प्रसारणं आकाशवाण्याः क्षेत्रीयासु भाषासु अपि भविष्यति। पश्चिम बंगाले मतदाता सूच्याः विशेष अन्वीक्षण पुनरीक्षण SIR इत्यस्य वादश्रवणस्य प्रथमचरणम् अद्य प्रभृति प्रारब्धम्। अशेषे राज्ये 3,000+ 34,000 वादश्रवणकेन्द्राणि संस्थापितानि सन्ति। प्रथमे चरणे 32,00,000 यावत् मतदातारः वादश्रवणार्थं समाहूताः। एतेषां मतदातृणां नामानि 2,000+ मतदातृसूच्याः भिन्नानि सन्ति। मतदातृणाम् आधारप्रपत्रं समेत्य 12 वैधप्रपत्राणि अवश्यमेव पञ्जीकृतानि भवेयुः। निर्वाचन आयोगेन स्पष्टतया निर्दिष्टं यत् अवैधप्रपत्राणां पञ्जीकरणं दण्डनीय अपराधो भविष्यति। राज्यस्य मुख्य निर्वाचनाधिकारिणा मनोज कुमार अग्रवालेन भणितं यत् वादश्रवणस्य सर्वविधसज्जता प्रपूरिता। वादश्रवणावधौ 34,000+ नियोजयिष्यन्ते। नागरिक विमानन महानिदेशालयस्य संयुक्त महानिदेशकः संजय के ब्रह्माणे इत्यस्य नेतृत्वे अन्वेषण समित्याः इंडिगो विमान यानानां परिचालन बाधायाः विषये स्वीय प्रतिवेदनं समर्पितम्। अस्मिन् मासे 5 दिनांके सम्पूर्णे देशे जाते विमान सेवासु समाह्वानानां समग्र समीक्षां मूल्यांकनं च कर्तुं समित्याः गठनं जातम्। समित्या ह्यः सायंकाले प्रतिवेदनं समर्पितम्। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। खालसा पंथ इति सिख मतस्य संस्थापकस्य श्री गुरु गोविंद सिंहस्य ऊनषष्ट्युत्तर त्रिशत तमीया जयन्ती अद्य पटना साहिब इत्यस्य तख्त श्री हरमिंदर साहिब अमृतसरम समेत्य अशेषे ही पंजाब राज्ये देशस्य अनेकेषु भागेषु च अद्य हर्षोल्लासेन परिपाल्यते। अवसरे अस्मिन् गुरु गोविंद सिंहस्य मातुः तस्य साहिबजादानां च बलिदानं स्मार्यते। राष्ट्रपतिः द्रौपदी मुर्मुः प्रधानमन्त्री नरेन्द्र मोदी च अद्य दशम अन्तिमस्य च सिख गुरोः श्री गोविंद सिंहस्य पवित्र प्रकाशोत्सवस्य उपलक्ष्ये शुभाशयाः प्रदत्तवन्तौ। सामाजिक अन्तर्जालीये सन्देशे राष्ट्रपतिः अवदत् यत् श्री गोविंद सिंह वर्येण स्वीय अदम्य साहसेन दुर्लभ दूरदृष्ट्या च जनान् न्यायेन जीवितुं प्रेरितम्। प्रधानमन्त्री श्री मोदी अस्य वर्षस्य आरम्भे सिख मत अनुयायिनां पवित्रतम तीर्थस्थानेषु अन्यतमस्य श्री गोविंद सिंह वर्यस्य जन्मस्थाने च तखत श्री हर मंदिर जी पटना साहिब इत्यस्य भ्रमणस्य छायाचित्राणि प्रसारितवान्। श्री गोविंद सिंहः अद्यापि शौर्यस्य अनुकम्पायाः त्यागस्य च मूर्तरूपः अस्ति इति श्री मोदी उक्तवान्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्यारभ्य गोवा कर्नाटक झारखण्ड इत्येतेषु प्रदेशेषु चतुर्दिवसीय यात्रायां भविष्यति। अद्य सायंकाले राष्ट्रपतिः गोवानगरं गमिष्यति। श्वः श्रीमती मुर्मुः कर्नाटकस्य कारवार हार्बर नौकाश्रयात् जलान्तरगामिना सबमरीन माध्यमेन समुद्रीय यात्रां करिष्यति। सोमवासरे राष्ट्रपतिः झारखण्ड राज्यस्य जमशेदपुर नगरे ऑल चिकी लिप्याः शतवार्षिक उत्सवे भागं भजिष्यति। ऑल चिकी लिपिः पञ्चविंशत्यधिक ऊनविंशति शततमे वर्षे रघुनाथ मुर्मू इत्यनेन संथाली भाषायाः कृते निर्मिता आसीत्। ऑल चिकी इति इदं संथाल आदिवासी समुदायस्य कृते बृहत् सांस्कृतिकं भाषिकं च महत्वं धारयति तथा च तेषां परिचयस्य साहित्यस्य परम्परायाः च संरक्षणे महत्वपूर्णां भूमिकां निभालयति। आरक्षिदलेन ऑपरेशन आघात इति अभियानस्य तृतीय संस्करणस्य अन्तर्गतम् अशीत्यधिक द्विशताधिक आरोपिणः धृताः। शस्त्र अधिनियम सवापक औषध मनः प्रभावी पदार्थ अधिनियम एतादृशानाम् अधिनियमानाम् अन्तर्गतम् एते आरोपिणः निगडिताः। दिल्ली आरक्षिबलेन सूचितं यत् चतुरधिक पञ्चशताधिकाः जनाः साम्प्रतं यावत् धृताः जाताः। उपभोक्तृ कार्य विभागस्य प्रमुखः उपक्रमः राष्ट्रिय उपभोक्तृ सहायिका सेवा एकत्रिंशत् क्षेत्रेषु पञ्चचत्वारिंशत् कोटि रूप्यकाणां प्रतिदानस्य सुविधा प्रदत्ता अस्ति। उपभोक्तृ कार्यस्य खाद्यस्य च सार्वजनिक वितरणस्य मन्त्रालयेन सूचितं यत् गत अष्ट मासेषु सप्तषष्टि सहस्रतोप्यधिका उपभोक्तृणां समाह्वानानाम् अनेन उपक्रमेण समाधानम् अभवत्। संयुक्तराष्ट्र अमेरिकायां भीषण शीत झंझावात प्रकोप कारणात् सहस्राधिकाः वैमानिक सेवाः बाधिताः। तत्र शीतलहर्याः कारणेन षड्शतोत्तरैक सहस्राधिक विमानानि निरस्तीभूतानि चतुश्शताधिक सप्तसहस्राणि यावच्च विलम्बेन प्रचलन्ति। थाईलैंड कम्बोडिया देशौ विवादास्पद सीमायां संघर्ष विरामाय सन्धिपत्रे हस्ताक्षरं कृतवन्तौ। थाईलैंड देशस्य रक्षामन्त्रिणा नत्थापोन नाक पानिच इत्यनेन कम्बोडिया देशस्य उपप्रधानमन्त्रिणा रक्षामन्त्रिणा च टी सेहा इत्यनेन च अद्य थाईलैंड देशस्य चंतबुरी प्रान्तस्य सीमा निरीक्षणस्थाने सन्धिपत्रे हस्ताक्षरं कृतम् इति वार्ताः।